वक्रतुण्डमहाकाय सूर्यकोटिसमप्रभ निर्विघ्नं कुरु मे देव सर्वकारेषु सर्वदा।
धन्यवादः भगिनी। अस्तु, अनानिमसति एका अथवा एकः अस्ति, कृपया नामं वदतु। I have sent a private message to you as well. I see somebody called Anonymous. Can you please put your name? धन्यवादः चन्द्र भगिनी, पुस्तकं प्राप्तं।
भगिनी अहं प्रेषितवती।
आम् 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 ऐ गाट् द बुक्, थेङ्क् यू। सो हू वाण्ट्स् टु रिसैट् द शब्दा फस्ट्?
अहं सिद्धा नास्मि।
चिन्ता नास्ति, ऐ थिङ्क् इट् प्लान् सम् thing last class, if I'm correct.
Bhagini, you said that we wanted to do, but I am not prepared. If anyone else is prepared, they can.
Sandeep Mahodaya, Veena, Bhagini, Kopi, Siddha Siva.
Bhagini, aham... there is a... aham karomi, Bhagini.
Karotu.
There is a shloka. गुरुरेव गतिः गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोः मतिरस्ति गुरौ मम पाहि गुरौ। सो इन् दिस् श्लोक वी हेव् आल् उकारान्त गुरुशब्दाः विभक्ति। सो गुरुः गुरुं गुरुणा गुरवे गुरोः गुरोः गुरौ हे गुरु। शाल ऐ हाव् टु रिसैट् हारिजोन्टलि आल्सो द्विवचन गुरुः गुरु
नो नो वेट् वेट् वेनेवर् यु से अ शब्द टेबल् फार्म् से द अड्रेस् फस्ट् उकारान्तः पुल्लिङ्गः गुरुशब्दः
उकारान्त उकारान्तः पुल्लिङ्ग गुरुः शब्दः
गुरुशब्दः एव
गुरुशब्दः
दिस् इस् वै ऐ से बिकास् यु शुड् नो द प्रातिपदिकम् अन्लेस् यु नो द प्रातिपदिकं नौ यु मैट् मेमरैज़् अण्ड् डू इट् बट् वेन् यु ट्रै टु डेक्लिनेट् इट् वेन् यु गो फार् डेक्लिनेशन् टेबल् देन् दट् टैम् यु विल् स्ट्रक् थिङ्किङ्ग्
Right. So, उकारान्तः पुल्लिङ्ग गुरुशब्दः गुरुः गुरु गुरवः गुरुं गुरु गुरु गुरुन् इट्स् गुरून् गुरुणा गुरुभ्यां गुरुभिः गुरवे गुरवे गुरुभ्यां गुरुभ्यः गुरोः गुरुभ्यां गुरुभ्यः गुरोः गुर्वौ गुर्वोः गुरुणां गुरौ गुर्वोः गुरुषु गुरो गुरु गुरवः ऐ थिङ्क्
Looks like you're actually not confident in the...
Yeah, I can write, but...
You can see and read at least, no?
Actually, while writing, it's easy for me, but reciting, yeah, okay, I'll... Guruhu, Guru, Guravaha. Gurum, no, Gurum, Guru, Gurun. Guruna, Gurubhyam, Gurubhihi. Gurave, गुरुभ्यां गुरुभ्यः गुरोः गुरुभ्यां गुरुभ्यः गुरोः गुर्वोः गुरूणां गुरौ गुर्वोः गुरुषु गुरो गुरु गुरवः.
I'm still I still feel that there are some errors in what I said. Anyhow, prepare and do in the next class.
Okay. If I can read, I will read one Strilinga Shabda.
Actually, I have written a lot of times. I don't know. While reciting, I'm making mistake. But while writing, it was good actually. That's why I take. Mm. Yeah.
Okay.
Dhanyavaad.
Swagatam. Karoti chinda bhagini.
I'm bhagini.
Before that, one minute. Okay. Karoti bhagini.
ऋकारान्तः स्त्रीलिङ्गमातृशब्दः माता मातरौ मातरः हेमातः हे मातरौ हे मातरः मातरं मातरौ मातृः मात्रा मातृभ्यां मातृभिः मात्रे मातृभ्यां मातृभ्यः मातुः मातृभ्यां मातृभ्यः मातुः मात्रोः मातॄणां मातरी मात्रोः मातृषु
संबोधना डिड यू डू हरि ओम्
धन्यवादः
भगिनी संबोधना डिड यू डू ऐ
रामो
संबोधना डिड यू डू ऐ हियर
रामु अपरं कूपड्रें आं भगिनि सम्बोधनं कृतवती द्वितीयविभक्त्याः पूर्वं कृतवती
धन्यवादः उमा भगिनी वाण्ट् टु से समथिंग यू अनम्यूटेड
योरसेल्फ अहम् एकशब्दं वदामि आकारान्तः स्त्रीलिङ्गः अम्बाशब्दः अम्बा अम्बे अम्बाः अम्बाम् अम्बे अम्बाः अम्बया अम्बाभ्याम् अम्बाभिः अम्बायै अम्बाभ्याम् अम्बाभ्यः अम्बायाः अम्बाभ्याम् अम्बाभ्यः अम्बायाः अम्बयोः अम्बानाम् अम्बायाम् अम्बयोः अम्बासु अम्ब अम्बे अम्बाः
धन्यवादः
धन्यवादः
अन्य कोऽपि वक्तुम् इच्छति वा नो चेत् वा नो चेत्
अहं वदामि
वदतु महोदय सन्दीप् महोदय खलु
आमाम् महोदय अस्मद् वा इकारान्त वारी शब्द वा अस्मद् युष्मद् कस्य किं वदामि
किमपि करोतु चिन्ता नास्ति
अस्तु वारी शब्दः नपुंसकलिङ्ग वारी शब्दः इकारान्त नपुंसकलिङ्ग वारी शब्दः
महोदय इकारान्त इति मास्तु इकारान्तः इति समीचीनं शुद्धम्
अस्तु आमाम् इकारान्तः नपुंसकलिङ्गी
नपुंसकलिङ्गः
नपुंसकलिङ्गः वारी शब्दः वारी वारिणी वारीणि वारी वारिणी वारीणि वारिणा वारिभ्यां वारिभिः वारिणे वारिभ्यां वारिभ्यः वारिणः वारिभ्यां वारिभ्यः वारिणः वारिणोः वारिणां वारिणि वारिणोः वारिषु वारी हे वारी हे वारे हे वारिणि हे वारीणि धन्यवादः
देर् इस् समबडी कॉल्ड एनानिमस् केन् यू प्लीज़् से योर् नेम्
Bhagini Rupa Vadami, I had trouble joining. Three, four times I had to cut this connection and join again. So, by joining the third or fourth time, I forgot to write my name.
Chintana. I just wanted to know who are all there so that I can call out your name when you...
Yeah.
So that you can participate.
Yeah.
Samyak. For next class, please plan beforehand, whoever wants to say the Shabda. Select some Asmad, Yushmad and all that so that you will get used to the words often.
Okay.
So, we were seeing Tritiya Vibhakti. I will just revise once quickly the rules that we saw. Karane Tritiya Vibhakti Bhavati. करणे तृतीया विभक्तिः भवति अहं लेखन्या लिखामि लेखन्या अस्तु शोधकरणशक्ति भावे प्रयोगे कर्मणि प्रयोगे च कर्तुः भवति तृतीया भवति लेखनेन ग्रन्थाः लिख्यन्ते we already saw about what भावे प्रयोगा and सह प्रयोगे अपि च सदृशः प्रयोगे तृतीया विभक्ति भवति अहं मित्रेण सह क्रीडामि मुखं चन्द्रेण सदृशम् अस्ति कारणवाचकस्य तृतीया विभक्ति भवति विद्यया ज्ञानं वर्धते So, Karana Vachaka can also be taken into consideration. Alam Yoge Tritiya. Alam Shramena. So, these were all the rules that we saw in the last class. Can someone help me to remember which page we are in? As I don't have the book, I have forgotten it.
21, Bhagini. Ekavimshati.
अस्तु धन्यवादः एकनिमिषम् अहं स्वीकरोमि अस्तु 21 अभवत् वा
न अभवत्
अस्तु सन्दीप् महोदय प्रारम्भं करोतु कृपया अस्तु सन्दीप् महोदय
विना इत्यस्य शब्दस्य योगे तृतीया विभक्तिः भवति उदाहरणेन धनेन विना कोऽपि न जीवति सूचना विना शब्दस्य योगे द्वितीया विभक्तिः पञ्चमी विभक्तिः चापि भवति
सम्यक्
अभ्यासः कैः विना कः किं कर्तुं न शक्नोति किं न करोति किं करोति इति वदत यथा लेखनी लेखन्या विना हरिः लेखितुं न शक्नोति
Can you explain once to others?
आम् विना इति इति एव शब्दस्य योगे तृतीया विभक्ति भवति तथैव द्वितीया विभक्ति तथा पञ्चमी विभक्तेः अपि विना शब्दस्य योगे विभक्ति शब्दस्य योगे योजितुं शक्यते विना शब्द
सम्यक्
आम् तर्हि तत्र कैः विना कः किं कर्तुं न शक्नोति विना लेखन्या विना हरिः लेखितुं न शक्नोति किमपि साधनस्य विना वा भावस्य भावेन विना अपि कर्तुं शक्यते
सम्यक्
आमाम् अग्रे पठामि कर्तुं न शक्नोति
पठतु एकं करोतु
आम् कार्यं डेश् रामः स्थातुं न शक्नोति कार्येण विना रामः स्थातुं न शक्नोति
सम्यक् धन्यवादः
धन्यवादः
अत्र कोऽपि प्रश्नः अस्ति वा कस्यचित् कृते नो चेत् वयम् अभ्यासं कुर्मः किमपि न चेत्
भगिनि एकं प्रश्नमस्ति अत्र लिखति विना शब्दस्य योगे द्वितीया विभक्ति पञ्चमीविभक्ति चापि भवति द्वितीया पञ्चमी द्वितीया एतत् सर्वे अन्तरं किं विना शब्दस्य उपयोगे विभक्त्याणाम् अन्तरे किं द्वितीया पञ्चमी
मया न अवगतं सम्यक्तया किं पृच्छति इति प्रश्नः किम् इति
Okay, English. I will try English. So there is a here it is said that vina can be used for dvitiya, panchami and tritiya. So what is the difference between the usage of vina between tritiya, panchami and dvitiya? If panchami we are going to study later on, it's okay. At least how to use vina for dvitiya and tritiya and what is the difference between the usage of those two?
Okay, you want to understand the usage of vina with the different vibhaktis, is it?
Yeah, because it is said here, the suchana it says vina shabdasya yoge dvitiya vibhakti panchami vibhakti chapi bhavati. So I thought, okay, if that is the case, then how can we know when to use vina for in tritiya and when to use vina in dvitiya, like that?
Okay. So, actually, most of the cases, Tritiya and Panchami will be the same. It carries the same meaning. When you use in Dvitiya Vibhakti, obviously it is going to be an object for which we are saying. For example, Vina means without. Okay. I say, Jalam Vina Meenaha Na Jeevati. Na Jeevanti. So, without water, fishes cannot live. I also can say jalat vina meenaha na jeevati, which carries the same meaning. Okay, so here the panchami becomes karana panchami.
Okay,
do you get my point? We are yet to touch panchami, so for now you can just ignore it. Dvitiya vibhakti, you just wait for some time. Okay. For example, gurum vina shishyah samyak na patanti.
Okay.
If I say that, in that sense also, without a guru, where the guru becomes an object.
Okay.
Do you get it?
Samyak na avagatam bhagini.
The meaning is without only, anyhow.
Okay.
After that, what kind of karaka it takes matters, only that matters. Because vina is an indeclinable form. So it can be used with any vibhakti. It carries the same meaning, however.
But that is the case with other also, right? Like we saw purataha and all that when we went with dvitiya. But
could
that
be,
has to be used only
could
with
be.
Yeah.
But then you have to interpret it whether the, for example, I said gurum vina. Vina is without. Without what? You get an object there.
Okay.
So that becomes, there the shakti is going to be karya. Sorry, karma shakti. So that takes a dvitiya vibhakti form. We will analyze that. We will, I just wanted to keep it at the end. Because once we do the panchami, we will, by the time we would be knowing all the types of usages that one has to be used.
Okay. No, similarly, Tritiya Vibhakte api sadhana, if it is sadhana rupena tartum shakyate tarhi Tritiya yajit.
Yeah, that is obviously sadhana. Yes, that was what I was trying to say. It depends on the answer of what or by what or from or to whom. From where.
यदि क्रियापदं प्रश्नं पृच्छामः तर्हि किमपि उत्तरं प्राप्नुमः तद् तेन आधारेण फाइनल मतलब वो पता चलता है उससे कि क्या अपने को यूज करना है वैसे
ठीक है
धन्यवाद
स्वागतम अस्तु अन्य कोऽपि प्रश्नः रूपा भगिनी विल डील दिस वन्स अगेन आफ्टर पंचमी विभक्ति
सुमित्रा भगिनी स्थातुं मीनिङ्ग्
ऐ एम् अनेबल् टु हियर् यु ऐ हर्ड् यु कालिङ्ग् मै नेम्
नो नो कार्यं रामः स्थातुं न शक्नोति वाट् इस् द मीनिङ्ग् आफ् स्थातुं
ऐ थिङ्क् इट्स् डूयिङ्ग् ओन्लि इफ् ऐ एम् करेक्ट् ऐ चेक् अण्ड् टेल् यु
yes bhagini it was me the same I had the same doubt because कार्येण विना रामः स्थातुं न शक्नोति ऐ डिडन्ट् अण्डर्स्टाण्ड् द मीनिङ्ग्
ओके
इट् वास् द सेम् डौट् ऐ थॉट स्थातुं
इट् कुड् बी स्टेयिङ्ग् मेबी यस्
ओके
बिकॉज ऐ एम् इवन् डौट्फुल् अबौट् द कम्प्लीट् मीनिङ्ग् आफ् द सेण्टेन्स्
लॉन्गर् लेंथ
Bhagini, is it saying that he can't stay idle without doing work?
Maybe, but it doesn't
come in. He can't rest without completing the work or something like that.
Maybe, but I'm still not convinced with the meaning. That's why I don't want to comment anything on that right now. Maybe it is like I don't have time to stay. Rama doesn't have time to stay. I'll just think of it and then I'll try to come up with a meaning. Okay. Any other questions? Astu. Veena Mahodaya Agrimam Karotu.
Maam Bhagini. उपनेत्रं रिक्तस्थलानि सः द्रष्टुं न शक्नोति उपनेत्रेण विना सः द्रष्टुं न शक्नोति
can you also come up with the meaning so that we can analyze just in case if anything is there like thatum
okay उपनेत्रं without spectacles he cannot see anything he cannot see drishtum na shak
rameshwari bhagini
sorry
na ekam paryaptam
padarakshaya vina sa chalitum na shaknoti without padatranam or chappals she cannot walk
samyak शङ्करप्रसाद् महोदय अग्रिमं करोतु कृपया अस्ति वा महोदय
यस् मेडम् आसन्दः रिक्तस्थलं एष उपवेष्टुं न शक्नोति आसन्देन विना एषः उपवेष्टुं न शक्नोति. Without the seat, this person will not be able to sit.
Chandra Bhagini, everyone karo to. Chandra Bhagini, asti va?
Aam Bhagini.
अग्रिमं कृपया करोतु.
एतत् किञ्चित् दन्ताः रिक्तस्थलमस्ति. वृद्धः चर्वणं कर्तुं न शक्नोति. दन्तैः विना वृद्धः चर्वणं कर्तुं न शक्नोति. सम्यक् वा भगिनि? एतत् पुल्लिङ्गशब्द एव किल? एकविषयं स्थातुं ऐ जस्ट् सा इन् द स्पोकन् संस्कृत् इट् इस् स्टे. Statum samayaha nasti it is.
Related to the sentence that they've given.
Okay.
So I just need some time to think on that.
Okay.
Astu. Agrimam. Chandra Bhagini, I couldn't open the Vibhakti Gallery book all of a sudden and got struck. Can you try to resend it to me so that I'll try?
Aam Bhagini.
उमा भगिनी अग्रिमं करोतु कृपया. ऐ डोण्ट् हाव् द बुक् सो.
आं भगिनि, आत्मविश्वासः रिक्तस्थलं सः कार्यं न करोति. आत्मविश्वासेन सः विना सः कार्यं न करोति.
अस्तु. आत्मविश्वासेन विना सम्यक्. रूपा भगिनी अग्रिमं करोतु कृपया.
आं भगिनि, कार्याणां धनिकः सञ्चारं कार्यानं रिक्तस्थलं धनिकः सञ्चारं न करोति. कार्यानेन विना धनिकः सञ्चारं न करोति.
महोदय, एकं प्रश्नं पृच्छामि. तत्र कार्यानं य वर्णस्य उपरि रेफ् कर्तुं शक्यते वा? कार्यानेन विना इति
तावदेव लिखामः खलु. चिन्ता नास्ति. इवन् इफ् यु पुट् र वित् टेल् एट् द एण्ड् दट् इस् आल्सो फैन् आक्चुलि. देर् इस् नो हार्ड् एण्ड् फास्ट् रूल् दट् यु हव् टु डु ओन्ली दट्.
बट् दट् केन् बि पासिबल् न?
Yeah, I think I made a mistake. It's karyanen. I think I said yenena, but ref asti khalo, so I have to use na.
No, ya asti.
In the middle there is ya, right? If you divide and say, it will be ik a repa yakara and then only nakara comes. So dantya nakara only will come.
Okay.
अग्रिमं मीरा भगिनी अग्रिमं करोतु कृपया.
भगिनी, वन् डौट् ऐ हेव्. सो फार् वि कनाट् मेक् इट् अ कार्यानं, रैट्? बिकास् देट् विल् चेञ्ज् द मीनिङ्ग्, रैट्?
वि केनाट् मेक् इट् टु
दट् रेफ. यु केनाट् पुट् द on the top of ya, you cannot make replace the repha with that sign on the top.
Why?
Like karya, something similar as something what you written as karya, right? Karyam.
Karya nena, you'll be writing it as a samasta word only, right? And as in a single word only, right?
Yes, but this repha you have to write as kar only, right? Kar.
Yeah, usually I've seen only that way.
Yeah.
What
because
you say,
this
correct?
Means
that was,
kar, right? That is the reason.
I think that was what Sandeep Mahade was also asking.
Oh,
about.
Okay.
Yes.
Meera Bhagini.
Kurjah. रिक्त स्थान चित्रकारः चित्रं न लिखति कुर्चेण चित्रकारः चित्रं न लिखति
सम्यक् परन्तु कुर्चेण न एव
नॉट ऑन
दन्त्य नकारः न क्षम्यतां तालव्य न दन्त्य एव
आम् धन्यवादः
अस्तु स्वागतम् विद्याधर महोदय अग्रिमं करोतु विद्याधर महोदय म्यूट् मध्ये तिष्ठति भवान्
भगिनी मम समीपे रेफरेन्स् नास्ति अहं तृतीयाविभक्ति घटीशब्दस्य तृतीयाविभक्ति अहं न जानामि
कस्य
घटीशब्दस्य घटी
मम पार्श्वे पुस्तकं नास्ति अतः किम् अस्ति इति न जानामि चिन्ता
नास्ति घट्या विना सः कुत्रापि न गच्छति
धन्यवादः सन्दीप् महोदय अग्रिमं करोतु कृपया
आं भगिनि धनं रिक्तस्थानं जनाः जीवनं न कुर्वन्ति धनेन विना जनाः जीवनं न कुर्वन्ति
धन्यवादः वीणा भगिनी अग्रिमम्
अस्तु भगिनि करोति अग्निः रिक्तस्थले ऐन्द्रजालिकः दीपं ज्वालयति अग्निना विना ऐन्द्रजालिकः दीपं ज्वालयति
सम्यक् रामेश्वरी भगिनी अग्रिमं
शय्यया विना शय्यया विना अपि निर्धनः निद्रां करोति विदौट् मेट्रेस् एण्ड् आल्
शय्यया सम्यक्
द वन् हू हेज़् नो वेल्त् दे केन् स्लीप्
सम्यक् अस्तु शङ्करप्रसाद् महोदय अग्रिमं करोतु कृपया
आहारः रिक्तस्थानं मुनिः जीवति आहारेण विना मुनिः जीवति विदौट् फुड् सेन्ट्स् विल् बि एबल् टु लिव्
अस्तु धन्यवादः
धन्यवादः
चन्द्रा भगिनी अग्रिमम्
आं भगिनि लोकयानं रिक्तस्थलमस्ति नगरजीवनं न भवति लोकयानेन विना नगरजीवनं न भवति भगिनी ऐन्द्रजालिकः
उमा भगिनी अग्रिमम्
आम् आं भगिनि
अन्यसाहाय्यं रिक्तस्थलम् एव सः महत् कार्यं साधितवान् अन्यसाहाय्येन एव सः महत् कार्यं साधितवान्
एव इति वा विना इति वा प्रश्नः किम् इति
अन्यसाहाय्येन विना एव सः महत् कार्यं साधितवान्
अस्तु धन्यवादः अस्तु अग्रिमं मीरा न रूपा भगिनी अग्रिमम्
आं भगिनि यः शब्दः कारणवाचकः हेतुवाचकः भवति तस्य तृतीया भवति उदाहरणं मम आगमनेन सः सन्तुष्टः
भगिनी कृपया पुनः पठितुं शक्यते वा उमा भगिनी म्यूट् मध्ये तिष्ठतु कृपया
आं भगिनी पठामि यः शब्दः कारणवाचकः आवरणे हेतुवाचकः अपि भवति तस्य तृतीया भवति उदाहरणं मम आगमनेन सः सन्तुष्टः अभ्यासः भवति अधस्तनकोष्टकस्य साहाय्येन पूर्णानि वाक्यानि रचयत प्रथमम् एषा वार्ता कोशः प्रवृद्धः एषा वार्तेन कोशः प्रवृद्धः तस्य वार्तया एषा वार्तया कोपः प्रवृद्धः सम् प्रिण्टिङ्ग् सम्थिङ्ग् मै बुक् ऐ कुडन्ट् एषा वार्तया कोपः प्रवृद्धः
अस्तु एषा
sorry, this one is already done. I didn't see the next page. एतया वार्तया तस्य कोपः प्रवृद्धः
एतया खलु
एषा आल्सो वी हेव् टु चेञ्ज् टु दि एतया वार्तया तस्य कोपः प्रवृद्धः ओके
मीरा भगिनी अग्रिमं
चिन्तनं कलुषितं सोरि कलुषितं सो ऐ हेव् टु चेञ्ज् एतादशम् आल्सो एतादशेन
एतादशं
कीप् दट् वन् सेम् ओके एतादशं
न एकनिमिषम् अत्र किम् अस्ति तत् एका एतादशम् इस् देर् एनी प्रिण्टिङ्ग् मिस्टेक् देर् आर् सर् केन् सम्बडी कन्फर्म्
एतादृशम्
एतादृशम् ओके एतादृशं चिन्तनेन मनः कलुषितम् ओके
एतादृशम् इति अस्ति खलु तस्य तृतीया विभक्ति किम्
एतादृशेन दृशेन
एतादृशेन सो वेर् एवर् सदृश सिमिलर् इन् द सेन्स् इट् कम्स् यु विल् हाव् टु चेञ्ज् इट् टु तृतीया इट्स् वाट् इट् ट्रैङ्ग् टु कन्वे ओके
आम् धन्यवादः ओके सो एतादृशेन चिन्तनेन
डोण्ट् से दृशेन एतादृशेन एतादृशेन
ओके एतादृशेन चिन्तनेन ओके सम्यक् धन्यवादः
धन्यवादः विद्याधर महोदय अग्रिमं करोतु कृपया
भगिनी वी हेव् टु कम्प्लीट् द सेण्टेन्स् इन् सम्वे रैट् एतादृशेन चिन्तनेन मनः कलुषितं भवति इति या कोऽपि ऐ थिङ्क् दट्स्
Yeah, yeah, you will have to complete
the sentence. Manaha kalushitam bhavati.
No, I think eta drisham is given, but whenever in the sense of similarity comes, you will have to change that to tritiya vibhakti, otherwise ashuddham vakyam. If you say eta drisham, whatever is given in that sentence, if you complete that, it is wrong. You'll have to say eta drishena. Okay. Only then shuddham vakyam. Vidyadhan hari agrimam.
Avivekena mahati vipat. So
Mahade punaha kripya samyak na shrutavati.
There is so avivekaha and mahati vipat is there.
Okay.
Avivekena mahati vipatti bhavati or something like that, or I don't know how to end the sentence. Is that correct sentence saying mahati vipat?
I don't have the book, so I couldn't assess it. Can someone else help me or help understanding?
It is saying, you know, if what is that?
No, here it is. Avivekaha, then in another column, Mahati Vipat.
Yeah, so Avivekena, Mahati Vipat is what I can make out, but is that a correct sentence? I am not sure. So,
Vipatti, Vipatim Udbhavati.
You too
can use that.
Or is it Proverbs? Are they just Proverbs?
It could be.
Yeah, maybe, yes, it could be. I'll just check and say that because I am unable to really even access that. Unfortunately, I lost my book. Anyhow, yeah. Astamari, I'll just see and let you know that.
Okay. I think it is correct as is, but I just want a confirmation, that's all.
Astu.
Okay.
Sandeep Mahodaya, agrimam karotu kripya.
महोदय धावनम शब्द मार्गे पतितः धावनेन मार्गे पतितः भवति
धावनेन वीना महोदय अग्रिमम्
देवानुग्रहः अपायः न जातः दैवानुग्रहेण अपायः न जातः
अत्र नकारः दन्त्यनकारः न तालव्य दैवानुग्रहेण इति शुद्धं
दैवानुग्रहेण अपायः न जातः
सम्यक् रामेश्वरी भगिनी अग्रिमं
कथनं न किमपि प्रयोजनम् कथनेन न किमपि प्रयोजनम्
कथनेन अस्तु धन्यवादः शङ्करप्रसाद् महोदय अग्रिमम्
आगमनं सर्वे तूष्णीं स्थितवन्तः आगमनेन सर्वे तूष्णीं स्थितवन्तः
अस्तु सम्यक् चन्द्रा भगिनी अग्रिमम्
अनारोग्यम् अन्यकोष्ठे अस्ति कृशः अनारोग्येण सह कृशः
अत्रापि
अनारोग्येण
इति मन्ये
अनारोग्येण सह कृशः
उमा भगिनी अग्रिमम्
आम् आम् भगिनी शिरोवेदना कार्यालयं न गतः शिरोवेदनेन कार्यालयं न गतः
शिरोवेदेन
शिरोवेदनया
I was trying to explain that. Bhagini, can you please come again with what you said earlier?
शिरोवेदना कार्यालयं न गतः
सम्यक् परन्तु तृतीया किं शिरोवेदना इत्यस्य आकारान्तपदं खलु
शिरोवेदनेन
न अकारान्तपुल्लिङ्गपदं चेत् यत् भवती उक्तवती तत् समीचीनं रामः रामेण परन्तु अत्र शिरोवेदना इति आकारान्तपदमस्ति खलु
आकारान्त पुल्लिङ्गः
न स्त्रीलिङ्गः
स्त्रीलिङ्ग शिरोवेदनाया कार्यालयं न गतः
शिरोवेदनाया इट् इस् शिरोवेदनया
शिरोवेदनया कार्यालयं न गतः
अधुना समीचीनम् रूपा भगिनी अग्रिम
आं भगिनि अग्निस्पर्शः हस्तः दग्धः अग्निस्पर्शेन तस्य हस्तः दग्धः
अग्निस्पर्शेन तस्य हस्तः स्पर्शः
दग्धः
अस्तु समीचीनम्
भगिनि तत्र स्पर्शेण
किं महोदय महोदय न श्रूयते अग्नि इति श्रुतं परन्तु
दन्त्य वा तालव्य वा इति
अग्निस्पर्शेन दन्त्येन कारणे Who did this one? Rupa Bhagini, right?
Haan, aham Kutavati Bhagini.
Neera Bhagini Agrimam Karu Kutavya.
It's a next one. प्रमाणसमये यत् वाहनम् उपयुज्यते तत् प्रमाणसाधनम् अतः तस्य
एतया वार्तया तस्य कोपः
प्लीस् केन् ऐ से थेङ्क् यु Okay, it is a prayana, sorry, prayana samaye yata vahanam upayujyate tata prayana sadhanam ataha tasya krutya vibhaktihi bhavati. Udaharan, saha dvi chakri kaya विद्यालयं गच्छति अभ्यासः अतः सूचितानां त्रयाणां सूच्य शब्दानां अय्येय साहाय्येन वाक्यानि रचयत यथा रामः कार्यानं मैसूरु नगरं रामः कार्यानेन मैसूरु नगरं गच्छति नौ द फस्ट् सेण्टेन्स् सीता त्रिचक्रिका गृहं सीता त्रिचक्रिकया गृहमम् Gruham. I'm sorry, I am not saying it properly, but I'm trying.
But you didn't complete the sentence, I believe, because you said Sita, Dvichakrikaya, Gruham. After that, there is no Kriya?
There is not here, but I can say Gachati.
Hmm.
Gachati.
Okay. अस्तु अस्तु सीता त्रिचक्रिकया गृहं गच्छति.
So I have a pronunciation problem, so you can correct me that. But if someone says, I cannot understand.
No, it is not like that. I don't have a book with me, so oh. I don't even know whatever you read is correct or not.
Oh,
so probably because of that they would have doubted.
Oh, okay. Then
there's no intention for anybody else to, you know, stop you from reading or anything like that. So please don't mistake.
Okay. Huh. All right. Thank you.
Swagatam. विद्याधर्महोदय अग्रिमं करोतु.
एकनिमिषं भगिनि. चिन्मयः बैक् यानं कार्यालयः. चिन्मयः बैक् यानेन कार्यालयं गच्छति.
सम्यक्. सन्दीप् महोदय अग्रिमं.
क्षम्यतां भगिनी, can anyone टेक् फोटो एण्ड् सेण्ड् इट् टु यू? मै फोन् इस् नाट् वर्किङ्ग्, इट् इस् इट्स् नाट् पिकिङ्ग्.
नो, इट्स् ओके, इट्स् आलरेडि 9:55. जस्ट् 5 ओर् 10 मोर् मिनट्स्.
ओके,
वि शुड् हव् डन् इट् लाङ्ग् बेक्. दट्स् ओके, नाट् अ प्राब्लम्.
पठामि महोदय. तृतीयं वाक्यं, जनाः डेश् लोकयानं डेश् गृहम्. जनाः लोकयानेन गृहं गच्छन्ति.
सम्यक्. जनाः गच्छन्ति लोकयानेन गृहम्. अस्तु, धन्यवादः. वीना महोदय कृपया अग्रिमं करोतु.
आं भगिनि, वयं सुखयानं ग्रामः. वयं सुखयानेन ग्रामं गच्छामः.
वयं खलु गच्छामः. समीचीनम्. रामेश्वरी भगिनी अग्रिमं करोतु.
प्रयाणिकाः.
वन् सेकेण्ड्, सोरि भगिनि. The Sukhayanam and Gramaha becomes Gramam, right? That becomes Vitiya.
Gramam. Okay. No, Gramam Vitiya. Sukhayanena becomes Vitiya.
Gramam. Because it's given as Gramaha.
No, it should be Gramam only. Because the Kriya is Gachhamaha, as you said. As it is Vayam, it has to be Gachhamaha.
Yes.
If you ask questions for that, it should be Gramam only, however.
धन्यवादः.
प्रयाणिकः विमानं विदेशः. प्रयाणिकाः विमानेन विदेशं गच्छन्ति.
सम्यक्, धन्यवादः. शङ्करप्रसादः अग्रिमं करोतु.
आरक्षकाः जीप्यानं कोलाहलस्थलम्. आरक्षकाः जीप्यानेन कोलाहलस्थलं गच्छन्ति.
सम्यक्. चन्द्रा भगिनी अग्रिमं करोतु.
आं भगिनि, एते मेटडोर् यानं तिरुपतिः. एते मेटडोर् यानेन तिरुपतिं गच्छन्ति.
वाट् इस् मेटडोर् यानं? ऐ हैव नेवर हर्ड ऑफ
मेटडोर. दैट्स लाइक
मेटडोर
वैन.
दे लिटरली ट्रांसलिटरेटेड इट, आई बिलीव. उमा भगिनी अग्रिमं करोतु.
आं भगिनी, ग्रामीणाः नौका तरन्ति. ग्रामीणाः नौकया तरन्ति.
किं तरन्ति? Is there anything like the ocean or river or something?
Nothing given.
Oh,
only ग्रामीणाः नौका तरन्ति.
अस्तु.
Bhagini, Taranti is sailing, is it?
Yeah. Taranti is basically sailing, swimming. Or crossing. You can take it either way.
Swimming, right?
No, it is not swimming. It's not. It's sailing.
Nauka is boat. Is boat.
Yes.
Graminaha naukaya taranti.
Basically, it is like crossing something. Taranti. Rupa Bhagini?
Bhagini. Bhaktaha rail yanam Mathura. Bhaktaihi Bhaktaha rail yanena Mathura nagaram gachanti.
Is it given as rail or rail?
Rail. Rail yanena Mathura nagaram gachanti.
Atra rail datavantaha.
Astu.
Rail likhati atra. Parantu rail is English pronunciation. I read it as rail.
Meera Bhagini adhimam karotu.
Raja ratha mandiram. Raja rathena mandiram gachati.
Samyak.
Dhanyavadah.
Vidyadhar mode adhimam.
Yada, this is the next one. Yada vayam.
Ekanimisham, kati vakyani santi atra, nutana abhyase.
Dasha. Nutana abhyase.
Nutana
abhyase. Pancha.
Astu, vayam kurmaha, tadapi vayam, adhya eva kurmaha. Padatum amadhyam, vidyadhar amadhyam.
Yada vayam kimapi krini maha, tada yat dhanam diyate, tasya. Tritiya vibhakti, vibhakti hi bhavati. Whatever, whenever we buy something, dhanam diyate. So how much money we pay, that becomes tritiya vibhakti.
Samyak.
Udaharanam, aham dasha rupyakaihi ekam lekhanim kritavan. That dasha rupyakaihi rupyakaha tritiya rupyakaha tritiya. Abhyasaha adaha katibhihi rupyakaihi kim kritam iti suchitam asti tadadharena vakyani rachayata. So, how many money is paid for buying what is written there. So, based on that, the promise. So, yatha, putraka asta, pustakam. Aham asta rupyakaihi yeta deepavad. I paid. So now the udaharana one that I
thought.
Shata rupyaka, shata rupyaka pekani, and correct or rupyaka ihi.
Rupyaka ihi. Shata rupyaka ihi.
That is in the sentence, right? But when I just say 100 rupees, it is shata rupyakani, right?
Yeah.
Okay. So what is written here is shata rupyakani and syutaha.
Okay.
Aham shata rupyakaihi etat syutam kritavan.
Samyak. Astu. Sandeep Mohri Agrimam.
Um, that is written 12 rupees kilobita sharkara dvadash rupay kaihi aham dvadash rupay kaihi kilobita sharkaram kritvan
kritavan द्वादश महोदय द्वादश इति मास्तु द्वादश रूप्यकैः इति शुद्धं
द्वादश रूप्यकैः
रूप्यकैः
रूप्यकैः अस्तु अस्तु रूप्यकैः
वीणा भगिनी अग्रिमं करोतु
आम् भगिनी इट्स् गिवन् 350 रूपीस् एट् शाटिका सो इट्स् अहं सार्ध
त्रिशत
रूप्यकैः एतत् शाटिकां क्रीतवती क्रीतवान्
अभवत् वा इतोपि अस्ति वा
अस्ति भगिनि सन्देहम् अस्ति सार्ध त्रिशत वी केन् आल्सो से पञ्चाशत् अधिक त्रिशत्
पञ्चाशत् ऐ डोण्ट् नो इफ् दट् इस् इन् यूसेज् बिकास् ऐ हव् हर्ड् इट् ओन्लि एस् सार्धत्रिशत विनेवर् ऐ कम् अक्रास् सो ऐ प्राब्लि केन् थिङ्क् आफ़् इट् मन् से अगेन् केन् सम्बडि लिस्ट् मी औट् द थिङ्ग्स् वी डिस्कस् टुडे आर् येट् टु बि आन्सर् स्टफ़् इन् द चाट् बाक्स् सो दट् ऐ केन् कम् अप् द आन्सर् नेक्स्ट् क्लास्
Only two more, Bhagini. One is 750, another is 30.
Rameshwari Bhagini. Agrimam, Rameshwari Bhagini Anantram Shankara Prasad Mahodaya. Tadrisham.
Sardha Saptashata. Utpithika.
Sardha Saptashata Rupyakaihi.
Aham Sardha सार्धसप्तशतरूप्यकैः उत्पीठिकां क्रीतवान् क्रीतवती
किमपि शङ्करप्रसद्मुद्र्या
अहं त्रिंशत् रूप्यकैः एकं कत्तरीं क्रीतवान्
महोदय तत्र त्रिंशद् अपि चलति त्रिंशद् वा त्रिंशत्
त्रिंशत् रूप्यकैः इफ् यु आर् गोयिङ्ग् टु रैट् इट् टुगेदर्
आं परन्तु द वा
त्रिंशत्
त्रिंशत् त न चलति अस्तु त्रिंशत्
तदपि समीचीनं परन्तु त्रिंशत् रूप्यकैः इति शुद्धं भवति यथा एकपदरूपेण भवान् लेखितुमिच्छति चेत्
आमां धन्यवादः
स्वागतम् अस्तु केन् सम्मन् सेर शान्तिमन्त्रम्
ॐ सर्वे भवन्तु सुखिनः ओ सारि अन्यं श्लोकं वदतु क्षम्यतां भगिनि
न वदति वा भवती जानाति खलु
आं भगिनि तस्य आर्डर्
अहं पठामि सर्वेषां स्वस्तिर्भवतु सर्वेषां शान्तिर्भवतु
सर्वेषां पूर्णं भवतु सर्वेषां मङ्गलं भवतु ॐ शान्ति शान्ति शान्तिः
धन्यवादः सर्वेषाम्